अथ दुर्गास्तोत्रम्। विराटनगरं रम्यं गच्छमानो युधिष्ठिरः अस्तु वन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीं यशोदा गर्भसंभूतां नारायणमनःप्रियां नन्दगोपकुले जातां मांगल्यां कुलवर्धिनीं कंसविद्रावणकरीं असुराणां क्षयंकरीं शिलातले विनिक्षिप्तां आकाशं प्रतिगामिनीं वासुदेवस्य भगिनीं दिव्यमाला विभूषितां दिव्यांबरधरां देवीं खड्गखेटकधारिणीं भारावतरणे पुण्ये ये स्मरन्ति सदा शिवां तान् वै तारयते पापात् पङ्के गामिव दुर्बलां स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः आमन्त्र्य दर्शनाकांक्षी राजा देवीं सहानुजः राजोवाच नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि बालार्कसदृशाकारे पूर्णचन्द्रनिभानने चतुर्भुजे तनुमध्ये पीनश्रोणिपयोधरे मयूरपिच्छवलये केयूराङ्गदभूषणे भासि देवि यथा पद्मा नारायणपरिग्रहा स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ पात्रं च पङ्कजं घण्टां विशुद्धां चैव या भुवि पाशं धनुर्महाचक्रं विविधान्यायुधानि च कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे मुकुटेन विचित्रेण केशबन्धेन शोभिना भुजङ्गभोगवासेन श्रोणिसूत्रेण राजता बिभ्राजसे चाबद्धेन भोगेनेवेहमन्दरः ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव जया त्वं विजया चैव संग्रामे च जयप्रदा ममापि विजयं देहि वरदा त्वं च साम्प्रतम् विन्ध्ये चैव नगश्रेष्ठे तव स्थानं च शाश्वतम् काली काली महाकाली सीधुमांसपशुप्रिये कृतानुयात्रा भूतैस्त्वं वरदा कामरूपिणि भारावतारे च ये त्वां संस्मरिष्यन्ति मानवाः प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता बुधैः कान्तारेष्वसन्नानां मग्नानां च महार्णवे दस्युभिर्वा निरुद्धानां त्वं गतिः परमानृणां जलप्रतरणे चैव कान्तारेष्वटवेषु च ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः त्वं कीर्तिश्रीर्धृतिसिद्धिर्हरेर्विद्या सन्ततिर्मतिः सन्ध्यारात्रिः प्रभानिद्राज्योत्स्ना कान्तिः क्षमादया नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् व्याधिं मृत्युभयं चैव पूजितानाशयिष्यसि सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् प्रणतश्च तथा मूर्ध्ना तव देवि सुरेश्वरि त्राहि मां पद्मपत्राक्षि सत्या सत्या भवस्वनः शरणं भव मे दुर्गे शरण्ये भक्तवत्सले एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् देव्युवाच शृणु राजन् महाबाहो मदीयं वचनं प्रभो भविष्यत्यचिरादेव सङ्ग्रामे विजयः तव मम प्रसादान् निर्जित्य हत्वा कौरववाहिनीम् राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति येन राः कीर्तयिष्यन्ति लोके विगतकल्मषाः तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुःसुतम् प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता न तेषां दुर्लभं किञ्चिदस्मिल्लोके भविष्यति इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेतवा तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव मत्प्रभावाच्च वस्सर्वान् विराटनगरे स्थितान् न प्राज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः इत्युक्ता वरदा देवी युधिष्ठिरमरिन्दमम् रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत इति श्रीमन्महाभारते विराटपर्वणि धर्मराजप्रोक्तं दुर्गास्तोत्रम्।